गणपतिगं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते विभश्यस्तवे शिवाम् गिरित्रताम् गुरुमाहिगुंसे पुरुषम् जगते शिवे नवचसा त्वा गिरिशाच्छा वदामसि यता नः सर्वविज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचददि वक्ता प्रतवो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रस्व मङ्गलः ये चेमागुम् रुद्रा अभिता दिक्ष्वश्रिता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराग्नियोर्जाम् याश्च ते हस्त इषव पराता भगवो वप अवदत्य धनुःसगुम् सहस्राक्षशतेषु धे निशीर्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येष व आभुरस्य निषङ्गतिः याते हेतिर्मीदुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतः समयक्ष्मया परिभुजा नमस्ते अस्वायुधायानाततताय धृष्णवे उवाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अतो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय त्रिषीमते पथीनां पतये नमो नमो बभ्लुषाय व्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ये जगतां पतये नमो नमो रुद्राय तथा विनेक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय कन्दयते पत्तीनां पतये नमो नम कृष्णवीताय धावते सत्त्वनां पतये नमः नमस्तहमानाय निव्याधिन आव्याधिनीनां पतये नमो नम ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सिकाविभ्यो जिगागुं सद्भ्यो मुष्णताम् पतये नमो नमोऽसि मध्यो नक्तं चरभ्य प्रकृतानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम इषु मध्यो धन्वाविभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जागृद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुं हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो ऋषादेभ्यश्च वो नमो नम इषुगद्भ्यो धन्वकद्भ्यश्च वो नमो नमो मृगयोभ्यश्वरेभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः namo bhavaya cha ruddaya cha namah sarvaya cha pashupataye cha namo nilagrivaya cha shitikanthaya cha namah kapardine cha yuktakeshaya cha namah sahasrakshaya cha shadadhanvane cha namo girishaya cha shibhivishtaya cha namo मेदुष्टमाय जेशुमते च नमो रस्वाय च वामनाय च नमो रिहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीव्याय च नमः ओर्याय च वत्सन्याय च नमः स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः ओर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोऽप्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः स्लोप्याय च वसान्याय च नमो अन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शौराय चावभिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो विष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोऽद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वक्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च भेण्याय च नमः सिकत्याय च प्रवाह्याय च नमः इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयराय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಕ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚೋಲಪ್ಯಾಯ ಚ ನಮಃ ಓರ್ಭ್ಯಾಯ ಚ ಚೋರ್ಮ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಶದ್ಯಾಯ ಚ ನಮೋಪಗುರಮಾಣಾಯ ಚಾಭಿಜ್ಞತೇ ಚ ನಮಃ ಆಖಿದತೇ ಚ ಪ್ರಖಿದತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಗುಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಕ್ಷೀಣಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆ ನಿರ್ಹತೆಭ್ಯೋ ನಮ ಆಮೀ ವತ್ಕೇಭ್ಯಃ ದ್ರಾವೇ ಅಂಧಸಸ್ವತೇ ದರಿದ್ರಂ ನೀಲಲೋಹಿತ ಯೇಷಾಂ ಪುರುಷಾಣಾಂ ಯೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋ ಮೋಲೇಶಾಂ ಕಿಂಚ ನಾಮಮತ್ ಯಾತೆ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವಾ ವಿಶ್ವಾಹ ಭೇಷಜೇ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ತಯಾನೋ ಮೃಡ ಜೀವಸೇ ಇವಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪದ್ದಿನೇ ಕ್ಷಯದ್ದೀರಾಯ ಪ್ರಭರಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮ ಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವಂ ಪುಷ್ಟಂಗಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂಚಯೋಶ್ಚ ಮನುರಾಯ ದೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೋ ಮಾನೋ ಮಹಾಂತ ಮುತಮಾನೋ ಅರ್ಥಕಂ ಮಾನ ಉಕ್ಷಂತ ಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವಧೇ ಪಿತರಂ ಮೋದ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತನುವೋ ರುದ್ರರೇರಿಷಃ ಮಾನಸ್ತೋಕೇತನಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೇರಿಷಃ ವೇದಾನ್ಮಾನೋ ರುದ್ರ ಭಾವಿತೋ ವಧೇರ್ಹವಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತೇ ಗೋಘ್ನ ಉತ ಪೋರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ಸುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾಚಲೋ ಅಧಿ ಚ ದೇವ ಬ್ರೋ ಯದಾ ಚ ಶರ್ಮ ಯಚ್ಚ ವಿಬರ್ಹಾ ಸುಹಿಷ್ಣುತಂ ಗರ್ತ ಸದಂಯುವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ತು ಮುಗ್ರಂ ಮೃಳಾಜ ರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತುರ್ಮಿಡಕ್ತು ಪರಿತ್ರೇಷಸ್ಯ ದುರ್ಮತಿರಗಾಯೋ ಅವಸ್ಥಿರಾ ಮಗವದ್ಭ್ಯಸ್ತನುಶ್ವಮೇಕಸ್ತೋಕಾಯ ತನಯಾಯ ಮೃಡಯ ಮೇರುಷ್ಟಮ ಶಿವ ತಮ ಶಿವೋ ನ ಸುಮನಾ ಭವ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧಂ ನಿಧಾಯ ಕೃತ್ತಿಂ ವಧಾ ನಮಾಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಗಿರಿದ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೇ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋಸ್ತವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವಃ ಪರಾಚೇನಾಮುಖಾಕೃತೇ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರಾ ಅರಿಭೋಮ್ಯಾಂ ಏಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯನ್ನವೇಂದರಿಕ್ಷೇ ಭಾರಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ದಿವಗುಂ ರುದ್ರಾ ಉಪಶ್ರಿತಾಃ ಏ ವೃಕ್ಷೇಷು ತಸ್ಮಿನ್ ಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಕ್ಕಪದ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿಮಿದ್ಯಂತೆ ಪಾತ್ರೇಷು ಪಿಬತೋ ಜನಾನ್ ಯೇ ಪತಾಂವತಿರಕ್ಷಯ ಐಲಭೃದಾಯ ವ್ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಚರಂತೆ ಶಿಖಾವಂತೋ ನಿಷಂಗಿನಃ एतावन्तस्य भूयागुंसश्च दिशो रुद्राविदस्थिरे तेजागुंसहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि ये शामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयं विश्वो यश्च नो द्वेष्टितं भोजं वेददामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानमयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमश्चु ह्यस्य शुश्रुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोऽयगो शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तञ्च माधीतञ्च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे
భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శరీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మేన మిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఊర్క్ష మే సూనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్దిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే జైత్రం చ మా ఔద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మే నం చ మే క్షుచ్చ మే వేహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మేణవశ్చ మే శామాకాశ్చ మే నీవారాశ్చ మే అశ్మాచ మే మృత్తికాచ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖతాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే సీసం చ మే త్రపుశ్చ మే శామం చ మే లోహం చ మే అగ్నిశ్చ ఆపశ్చ మే విరుధశ్చ ఔషధయశ్చ మే కృష్టపచ్యం చ మే కృష్టపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మహేమశ్చ మహితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మహీంద్రశ్చ మే సోమశ్చ మహీంద్రశ్చ మే సవితా చ మహీంద్రశ్చ మే సరస్వతీ చ మహీంద్రశ్చ మే పూషా చ మహీంద్రశ్చ మే బృహస్పతిశ్చ మహీంద్రశ్చ మే మిత్రశ్చ మహీంద్రశ్చ మే వరుణశ్చ మహీంద్రశ్చ మే త్వష్టా చ మహీంద్రశ్చ మే ధాతా చ మహీంద్రశ్చ మే విష్ణుశ్చ మహీంద్రశ్చ మే శ్వినౌ చ మహీంద్రశ్చ మే మరుతశ్చ మహీంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మహీంద్రశ్చ మేంతరిక్షం చ మహీంద్రశ్చ మే ద్యౌశ్చ మహీంద్రశ్చ మే దిశశ్చ మహీంద్రశ్చ మే మూర్ధా చ మహీంద్రశ్చ మే ప్రజాపతిశ్చ మహీంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ ఉపాగుంశుశ్చ మేంతర్యామశ్చ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రే చ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మాహేంద్రశ్చ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీవతశ్చ మే హారియోజనశ్చ మే इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मवुपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ म आधवनीयश्च म आग्नेर्धम् च मे हविर्धारम् च मे गृहाश्च मे सदस्य मे पुरोडाशाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यस्य मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दितिश्च मे धृतिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मऋतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाक्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाक्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च मऋषभश्च मे वेहच्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतागुश्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टा चत्वारिगुंशच्च मे वाजश्च प्रथवश्चाभिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्थामदानि सगुंसि षद्विश्वे देवासूक्तवाच पृथिविमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरोऽनुमदन्तु शान्ति शान्ति शान्तिः ॐ तत्सयोरावृणीमहे गातु यज्ञाय गातुम् यज्ञपदये
दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायादुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशरानशने अभि तस्मात् विराणजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्मयिद्मः शरद्धविः सप्तास्यातन् परिधयः त्रिसप्त समिद कृता देवाय यज्ञम् तन्मानाः अबध्नन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो कावूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ऊरो तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीष्टोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తేహనాకం మహిమానః సచంతే యత్ర పూర్వే సాధ్యాసంతి దేవాః అభ్యః సంభూత పృథివ్యైరసా చ విశ్వకర్మణ సమవర్తతాధే తస్య త్వష్టా విదద్రూపమేతి తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా విద్యతే యనాయ ప్రజాపతిః శరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య ధీరా పరిజానంతి యోనిమ్ మరీచీనాం పదమిచ్ఛంతి వేధసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే హ్రీష్యతే లక్ష్మీస్య పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినో వ్యాక్తం ఇష్టం మనిషానా అమం మనిషానా సర్వం మనిషానా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవీ స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం దిగాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ఓం శాంతి 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 ఓం అత్రిణాత్వా క్రిమేహన్మే కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమీనాగుం రాజా అప్యేషాగస్తపతిర్హతః అథో మాతాథో పితా అథో స్థూరా అథో క్షుద్రాః అథో కృష్ణా అథో శ్వేతాః అథో ఆశాతికా హతాః శ్వేతాభిః సహ సర్వే హతాః ఆహరావద్యా శ్రుతస్య హవిషో యథా తత్ సత్యం యదమయ్యమస్య జంభయో ఆదధామి తథా హి తత్ ఖన్పన్నసే ఓం శాంతి 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 ఓం శం సమిద్యువసే వృషన్నగ్నే విశ్వాన్యర్య ఇళస్పదే సమిద్యసే స నో వసూన్యాభరా సంగచ్ఛద్వం సంవదద్వం సంభోమనాంసి జానతాం దేవా భాగం యథా పూర్వే సంజానానా ఉపాసతే సమానో మంత్రమితి సమానీ సమానం మనసః చిత్తమేషాం సమానం మంత్రమభిమంత్రయేవ సమానేన వో హవిషా జుహోమి సమానీవ ఆకోతి సమానా హృదయాని వః సమానమస్తు వో మనో యథా वस्तु सहासति ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् हुवेम प्रातर्जितम् भगमुग्रगुम् हुवेम वयम् पुत्रमधितेर्यो विधत्ता आद्रश्चिद्यम् मन्यमानस्तुलश्चिद्राजा छिद्यम् भगम् भक्षेत्याः भग प्रणेतर्भग सत्यराधो भगे माम् धियमुदवदन्नः भग प्रणोजनय गोभिरश्वैर्भग प्रणुभिर्नृवन्तः स्याम उदेदानीम् भगवन्तः स्यामोत प्रवित्व उत मध्ये अह्ना उतोदितामघवन् सूर्यस्य वयम् देवानागुम् सुमतौ स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तः स्याम तम् त्वा भगः सर्व इज्जो हवेऽभिसनो भगपुर एता भवेह समद्वरायोषसो नमन्तदधिक्रावेव शुचये पदाय अर्वाजीनम् वसुविदम् भगन्नो रथमिवाश्व वाजिन आवहन्तु अश्वावतीर्गोमतीर्न उषासो वीरवते सदमुच्छन्तु भद्राः घृतम् दुहाना विश्वतः प्रपीणा यूयम् पातः स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्तमता भागम् चिकीर्षते अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सवितारथेना देवो याति भुवना विपश्यन् अग्निन्द्रूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य शुक्रतुम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुत च द्विपदाम् निष्क्रेतोऽयम् यज्ञियम् भागमेतुराय स्पोष यजमानस्य सन्तु ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानिभेषजा अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमिमाय सलिलानि तक्षत्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषि सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् अपागुम् रेतागुंसि जिन्वते शोना पृथिविभवा नृक्षरा निवेशने यच्छानः शर्म सप्रथाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसि
कामश्वं पोषयित्नवासनो मृड तीदृशे ओम अधिदेवता प्रत्यधिदेवता सहिताय अंगारकाय नमः ओम उद्बुद्ध्यस्वाग्ने प्रतिजाग्र येन मिष्टा पूर्ति सगुं सृजे थामयञ्च पुनः कृण्वग्रस्वापितरं युवानमन्वातागुंसि त्वैतन्तुमेतम् इदं विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुंसुरे विष्णोरराटमसि विष्णो पृष्ठमसि विष्णोष्णप्त्रे स्तो विष्णो स्योरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियदर्यो अर्हा द्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्चवसर्त प्रजात तदस्मासु द्रविणं देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथाचार्याति अपि वस्सुतस्य तव प्रणीते तव शूरशर्मन्नादिवासन्ति कवयस्तु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषि मतः सुरुचो वेन आवह स बुद्निया उपमा अस्य विष्टा सतश्च यो निमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवशुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यो दैव्यानि मानुषा जनो गुष्यन्तर्विश्वानि विद्मना जिगाते इन्द्राणि मासु नारिषु सुपत्नी महमश्रवम् न ह्यस्या अपरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतत्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्तामास्ति जुहुमस्तन्नो अस्तु वयग्गुस्यामपतयोरयीणाम् इमम् यमः प्रस्तरमाहि सीदाङ्गिरोभिः पितृभिः संविधानः आ त्वा मन्त्रा कविशस्तावहन्ते नाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॐ कयानश्चित्राभुवधूति सदा वृधः सखा कया शचिष्ठया वृता आयङ्गौ वृष्टिरक्रमीदसनन् मातरम् पुनः पितरम् च प्रयन्सुवः यर्ते देवी निररुतिराबन्धदावग्रीवा स्वविचर्त्यम् इदम् ते तद्विश्याम्यायुषो न मध्या तथा जीव पितुमद्धि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवे पेशो मर्या अपेशसे समुषड्भिरजा यथाः ब्रह्मा देवानाम् पदवे कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम्
शेलो रुद्रा नागुस्मरितिर्वना नागुम् सोम पवित्रमत्येतिरेभन् सचित्रचित्रम् चितयन्तमस्मि चित्रक्षत्रचित्रतमम् वयोधा चन्द्रम् प्रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्भृणुते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवामसो मम राति यतो निदहाति वेदः सरः पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्ते वैरोचने कर्म फलेषु जुष्टा दुर्गाम् देवेगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ओश्च पृथ्वी बहुलान उर्वे भवातोकायतनयाय शय्योः विश्वायिनो दुर्गः जातवेदः सिन्धुम् न नावा दुरितादिपर्षे अग्ने अत्रिवन्मनसा गृणानो अस्माकम् वोज्जविता तनूरा ऋतराजितगुम् सहमानमुग्रमग्निगुम् उवेम परमात्सतस्तात् स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः प्रत्योषिकमेद्यो अध्वरेषु सनाच्चहोत नव्यश्च चत्से स्वाञ्चाग्ने तनुवम् पिप्रयस्वास्मभ्यम् च सौ भगमायजस्व गोभिर्जुष्टमयुजो निषिक्तम् तरेन्द्रविष्णोरणुसञ्चरेम नागस्य पृष्टमविसंवसानो वैष्णवीम् लोक इह मादयन्ता कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरागतम् तद्विप्रासो विपन्यवो जाग्रवागुम् सत्सविन्धते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकन्नीतम् गुहायाम् विप्राजते तत्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगात्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तरकारे परामृतात् परिमुच्यन्ति सर्वे दह्रम् विपापम् परमेश्वभूतम् यत्पुण्डरीकम् पुरमज्जसग्गष्टम् తత్రాపి దహ్రం గగనం విశోకస్తస్మిన్ యదంతస్తదుపాసితవ్యం యో వేదాదౌ స్వర ప్రోక్తో వేదాంతే చ ప్రతిష్ఠితః తస్య ప్రకృతిలీనస్య యః పరస్య మహేశ్వరః స్వస్తి ప్రజాభ్యః పరిపాలయంతా న్యాయేన మార్గేణ మహీమహేషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతి.